سلبيين في نفس الموضوع. أنت سنتان تكو مجيا هل أنت بلين قطر كنان سترتا فاتا وقس مصر سي بيتي ها لنانك إنو أكشار سمام نائي مدهم يم هي شرات تتسنم ياكر نم فرقتن تسمي پاني نهي نمه وكي كارم وررجم بحشو كارم بطن زلم پاني نم سوترا كارم جب پرنو توسفم لفترين ولفترين نمسكرتيا تدو بيح پريبھاں پچا വയ്യാകരണ സിദ്ധാന്ത കൗമുദീഹ്യം വിരച്ചത് കണ്ടിന്യൂയിങ് വിത്ത് റിവിഷൻ ഓഫ് വാട്ട് വി ഡിഡ് ലാസ്റ്റ് വീക്ക് ഹകാരാന്തേഷു പുല്ലിംഗേഷു ലിഹ് ദുഹ് ദൃഹ് ഇതി ത്രയഹ ഉദാഹരണത്വേന സ്വീകൃതാഹ ദീക്ഷിതൈഹി ലിഹ് ഇതി ഹോഢഹ ഇതി സൂത്രസ്യ യത്ര പദാന്തേ ഹകാരസ്യ ഢത്വം ഭവതി ദുഹു ഇതി ദാദേർധാതോർഖ സൂത്രസ്യ യേന വിദ്യമാനസ്യ ഹകാരസ്യ സ്ഥാനേ ഘത്വം ഭവതി ദ്രുഹു ഇത്യത്ര തു വാ ദ്രുഹമുഹശ്രുഹശ്നിഹം ഇത്യനേന വൈകൽപ്പികം ഘത്വം തദ്ഭാവേ ഹോഢഹ ഇതി ഘത്വമപി ശ്രൂയതെ തദനന്തരം വിശ്വവാഹ് ഇതി ശബ്ദഃ അത്ര തു ഹകാരസ്യ വിഷയേ സംശയഃ നാസ്തി. സാധാരണതയാ ഹകാരാന്തത്വാത് ഹോഢഃ ഇതി പരാന്തേ ഢത്വം ഭവതി. തേന സഹ ഭസംജ്ഞായാം സത്യാം വാഹ ഊഠ് ഇത്യനേന സംപ്രസാരണം ഭവതി. വാഹഃ സംപ്രസാരണം ഊഠ്. വാഹ ഇത്യത്ര യഃ വകാരഃ സംപ്രസാരണം ഇത്യനേന ഇഗ്ഞണ സംപ്രസാരണം. ഇകഃ യണഃ സ്ഥാനേ യഃ ഇക് തസ്യ സംപ്രസാരണം ഇത്യുച്യതെ. അത്ര എൺ നാമ വകാരഃ വകാരസ്യ സ്ഥാനേ ഊകാരഃ സംപ്രസാരണത്വേന വിധീയതേ ഭസംജ്ഞായാം ഷസ്പ്രഭൃതിഷു അജാരിഷു പ്രത്യയേഷു. വിശ്വ വാഹ് ഇത്യസ്തി വിശ്വ ഊ ആഹ് സംപ്രസാരണാച്ചേത്തി പൂർവരൂപേ വിശ്വ ഊഹ് ഇതി ഭവതി. അകാര ഊകാരയോഃ ഗുണം ബാധിത്വാ ഏത്യധത്യുട്സു ഇത്യനേന വൃദ്ധൌ വിശ്വഊഹഃ ഇതി രൂപം ദ്വിതീയ ബഹുവചനെ. വിശ്വവാട്ട് വിശ്വവാഹൗ വിശ്വവാഹഃ വിശ്വവാഹം വിശ്വവാഹൗ വിശ്വഊഹഃ വിശ്വഊഹ വിശ്വവാഡ്ഭ്യാം വിശ്വവാഡ്ഭിഃ. ഹലാദിഷു പ്രത്യയേഷു ദത്തം ഭവതി അജാദിഷു പ്രത്യയേഷു സംപ്രസാരണം വൃദ്ധിശ്ച ഇത്യേക ശബ്ദഃ. അപരഃ വിശിഷ്ട ശബ്ദഃ അനഡുഹ് ഹകാരാന്തഃ അനഡുഹ് ശബ്ദഃ. അത്ര പൂർവോക്തം കിമപി കാര്യം നഭവതി ഢത്വഘത്വാദികമപി നഭവതി. അത്ര വിശിഷ്ടാന്യേവ കാര്യാണി സന്തി സർവാണി. അനഡുഹ് ശബ്ദസ്യ സർവനാമസ്ഥാനേഷു പരേഷു ചതുർനഡുഹോരാമുദാത്തഃ ഇത്യനേന ആം ഇത്യാഗമഃ ക്രിയതേ. ആം ഇതി മിത്താഗമഃ അന്ത്യാദജഃ പരഃ ഭവതി. സംബുദ്ധൌ തു ആമം ബാധിത്വാ അം ആഗമോ ഭവതി അം സംബുദ്ധൌ ഇതി സൂത്രേണ. സോ അനഡു ആഹ് അഥവാ അനഡു അഹ് ഇതി ഭവതി. ആമി അമി വാ കൃതേ സൗ പരേ അകാരാത് പരത്വേ പരം സാവനഡുഹഃ ഇത്യനേന നുമാഗമോപി ഭവതി. ദിസ് ഇസ് വൺ ഓഫ് ദ വെരി റെയർ കേസസ് വെർ യു ഹാവ് ഫൈൻഡിങ് ടു ആഗമസ് അക്കറിങ് അറ്റ് ദ സെയിം തിങ്. യു ഹാവ് ആം ആൻഡ് ഫോളോയിങ് ആം യു ഓൾസോ ഹാവ് നും. ഓക്കെ, സോ യു ഹാവ് അനഡ്വാ ന ഹ് ഹകാര ഗെറ്റ്സ് ഡിലീറ്റഡ് ബൈ സംയോഗാന്തസ്യ ലോപഃ. തേന അനഡ്വാന് അനഡ്വാഹൗ അനഡ്വാഹഃ ഹേ അനഡ്വൻ ഇതി സംബുദ്ധൗ അന് ഇതി അമഃ അകാരഃ അന്യത്ര സർവനാമസ്ഥാനേഷു ആമഃ ആകാരഃ ശ്രൂയതേ. അനഡ്വാഹം അനഡ്വാഹൗ അനഡുഹഃ ഇതി ഭവതി. അനന്തരം പദാന്തെ യത്ര ഹലാദയഃ പ്രത്യയാഃ തത്ര സ്വാദിശ്യ സർവനാമസ്ഥാനേ ഇത്യനേന പരസംജ്ഞായാം സത്യാം. പദാന്തേ ഹകാരസ്യ സ്ഥാനേ ദകാരഃ ആദേശോ വിധീയതേ വസുസ്രം ശുദ്ധം സ്വനഡുഹാം ദഹ ഇതി സൂത്രേണ. തേന അനഡുഹ് ഭ്യാം ഇതി സ്ഥിതേ ഹകാരസ്യ സ്ഥാനേ ദകാരേ അനഡുദ്ഭ്യാം അനഡുദ്ഭിഃ ഇത്യാദീനി രൂപാണി. ദേ ആർ ടു സ്പെഷ്യൽ ഹകാരാന്തസ് വിച്ച് വി സോ. സോ അന്യ കേചന പ്രയോഗാഹ അപി ദൃഷ്ടാഹ യേതന്മർത്യമുദ്ദിശ്യ ഭഗവത്യപ്രതിദ്രുഹി ದೃಹ್ಯತ್ಯಜ್ಞ ಪೃಥಕ್ ದೃಷ್ಟಿ ತತ್ವತೋ ವಿಮುಖೋ ಭವೇತ್ ಭಾಗವತೆ. ಕಃ ಹಕಾರಾಂತ ಶಬ್ದ ಅತ್ರ ಉಪಯುಜ್ಯತೆ. Not just druhi. Yes. It's not just druhi. It is apratidruhi. That's the word. Druhi is correct, but the word, the samasta pada is apratidruhi. Hakaranta pulinga ha apratidruh. I thought that would be confusing. Is that druhyati? Yes. Atinganta. Okay, so druh is a dhatu, so druhyati is the tinganta there, and apratidruhi is the subanta derived from the same dhatu. Okay. So, etan martyamuttishya bhagavati apratidruhi is the subanta, druhyati is druhadhatohu, lati prathamaikavachanam, druhyati. ಪೃಥಕ್ ದೃಷ್ಟಿ ತತ್ವತೋ ವಿಮುಖೋ ಭವೇತ್. ದ ಮೀನಿಂಗ್ ಆಫ್ ದೃಹ ಧಾತು ಇಸ್ ದ್ರೋಹ ದೃಹ ಜಿಘಾಂಸಾಯಾಮ್ ಇದು ಧಾತು. ದೃಹ ಇಸ್ ವೇರ್ ಯು ಇಂಟೆಂಡ್ ಟು ಹರ್ಟ್ ಸಂಬಡಿ ಆರ್ ಯು ಮೀನಿಂಗ್ ಆಫ್ ದ ಸೆಂಟೆನ್ಸ್ ಐ ವಿಲ್ ಕಮ್ ಟು ಇಟ್. ಸೊ ಅಪ್ರತಿದೃಹ್ ಇಸ್ ದ ವರ್ಡ್ ಸಪ್ತಮೀ ಏಕವಚನೆ ಅಪ್ರತಿದ್ರುಹಿ ಇದು ಭವತಿ ಅಪ್ರತಿದೃಹ್ ಶಬ್ದ ತಸ್ಯ ಸಪ್ತಮೀ ಏಕವಚನೆ ಞಿ ಪ್ರತ್ಯಯ ಅಜಾದಿತ್ವಾತ್ ಅತ್ರ ಘತ್ತಂ ದತ್ತಂ ಇತ್ಯಾದಿ ಕಾರ್ಯಂ ಕಿಮಪಿ ನಾಸ್ತಿ ಜಸ್ಟ್ ದ ವರ್ಡ್ ಜಾಯಿನ್ ದೆಮ್ ಅಂಡ್ ಯು ಹ್ಯಾವ್ ಇಟ್. ಓಕೆ, ಸೊ the sentence is, I'm not completely familiar with the context of the thing. It says, apratidruhi bhagavati. Martyamuddishya apratidruhi bhagavati. It says, bhagavati, the Lord, is apratidruhi, will never do droha back to you. And whatever sin or crime you commit against the Lord, he will never think of getting back or taking revenge at a human being. That is, the God is above all, the Lord is above all such limitations. Yaha martyamuddishya apratidruhi bhagavati. So, with regard to the Lord who is never, pratidroha is when you do droha, the whatever the revenge taken is called pratidroha, and the Lord is never the one to take such steps. So, in with regard to such a Lord, yaha druhyati, he who commits a droha, agnyaha, such an ignorant man, prithak drishtihi, and he who sees the Lord as separate from himself, tattvataha vimukho bhavet, he is going away from the truth, or going away from the, what is the reality, is what it means in this. So, apratidruhi is the word which I was looking for. Okay. The next one from the Bhagavata. Anobhir anaduddyuktaihi tamanujnyapya gokulam. This actually does not have the forms of anaduha, as in one of the 21 forms, but I just included it because it has an illustration of a sutra which we studied. Can somebody point out? Kashabdaha. It's very obvious. No. అనడుద్ యుక్తై ఇస్ ద వర్డ్. ఇట్స్ అ సమాస యాక్చువలీ, సో ఇట్స్ నాట్ ఎ ఫార్మ్ ఆఫ్ అనడుహ్ శబ్ద. బట్ యు సీ దట్ ఇట్ ఇస్ అనడుహ్ అండ్ యుక్త సమాసే పదత్వం అస్తి. సో దర్ ఆర్ టూ డిఫరెంట్ వర్డ్స్ యూస్ జాయినింగ్ ఇన్ సమాస. పదాంతత్వాత్ వసస్రం శుద్ధం సనడుహాం దహ. పదాంతే తస్య దకారాదేశ ఇత్యనేన హకారస్య స్థానే దకారాదేశ కృత. అతయవ అనడుద్యుక్తై. అనోభిః అనడుద్యుక్తై. అనః మీన్స్ షకట, అ కాట్. దట్ ఇస్ వై అన్ ఆక్స్ ఆర్ ద బుల్ ఇస్ కాల్డ్ అనడుత్. అనః వహతి ఇది అనడ్వాన్. అనడుహ్ శబ్దస్య స ఏవ అర్థః. సో అనోభిః ఇన్ కార్ట్స్ అనడుద్యుక్తై విచ్ ఆర్ ఫిట్టెడ్ విత్ బుల్లక్స్ తమ్ అనుజ్ఞాప్య గోకులం, సెండింగ్ హిమ్ టు గోకుల. సంబడి ద కాంటెక్స్ట్ వీ నీడ్ టు విత్ హూమ్ సెండింగ్ హూమ్. బట్ హీ సేయింగ్ అనడుద్యుక్తై అనోభిః ఇన్ కార్ట్స్ విచ్ ఆర్ ఫిట్టెడ్ విత్ బుల్స్ తమ్ గోకులం అనుజ్ఞాప్య పర్మిటింగ్ హిమ్ టు లీవ్ టు గోకుల. ఓకే. సోయం దుర్మర్ష హృదయో బ్రహ్మధృక్ చ లోకేపకీర్తిం మహతీం అవాప్స్యతి. షుడ్ బి ఈసి. వి సా వెరీ సిమిలర్ యూసేజ్ యెస్టర్డే. We have Brahmadhruk. We saw Mitradhruk yesterday. He who acts against a friend. Brahmadhruk, he who acts against whatever. Brahma can be, has a lot of meanings. It can be mean a dvija or it can mean Parabrahma. Here it probably means Brahmanaha ityarthe Brahma shabdaha. Brahmadhruk cha లోకే మహతీం అపకీర్తిం అవాప్స్యతి. సచ్ ఎ పర్సన్ విల్ గెట్ విల్ ఇన్కర్ ఇన్ఫేమీ ఇన్ ద వర్ల్డ్. సో బ్రహ్మధృక్, బ్రహ్మధృహ్ ఇది హకారాంత పుల్లింగ ప్రథమైకవచనే ప్రక్రియా తు జ్ఞాయతే. దృహ్ శబ్ద బ్రహ్మధృహ్ శబ్ద సులోప సుప్రత్యయ లోప దృహ్ వా దృహం హష్ణు హష్ణిహామిత్యనేన వికల్పేన ఘత్వం. దృఘ్ ఇది జాతే ఏకాచో వశో భష్ ఇత్యనేన దకారస్య స్థానే ధకారః. ధృఘ్ ఇది భవతి. జలాంశ్వంత ఇది జష్టం, ఖరిచ ఇది చర్వం, బ్రహ్మధృక్ రూపం. జస్ట్ వన్ థింగ్, వెన్ ఐ వాస్ గోయింగ్ త్రూ ద దిస్ వాదృహము హష్ణు హష్ణిహాం, సో పాణిని స్పెసిఫికలీ సేస్ ఇట్స్ ఎ వికల్ప. ఇట్ ఇస్ ఫార్ దృహ్ శబ్ద, ఇట్స్ ఎ వికల్ప. సో దిర్ ఇస్ అన్ ఆప్షనల్ ఘత్వ, దర్ ఇస్ ఆల్సో అన్ ఆప్షనల్ ఢత్వ. దిస్ యూ కెన్ ఆల్సో హ్యావ్ ఫార్మ్స్ లైక్ బ్రహ్మధృట్ ఆర్ బ్రహ్మధృడ్. బట్ ఐ ట్రైన్ టు ఫైండ్ ప్రయోగస్ ఫర్ ఆల్ అండ్ వేర్ ఎవర్ ఐ ఫైండ్ దిస్ దృహ్, వెదర్ ఇట్ ఇస్ మిత్రధృక్ ఆర్ బ్రహ్మధృక్, ఐ ఆల్వేస్ ఏబుల్ టు ఫైండ్ ఓన్లీ ద ఘత్వ ఫార్మ్ ఆఫ్ ఇట్. ఈవెన్ ఇన్ ద వేదాస్ దెర్ ఇస్ సమ్ form where ghatva itself has been used. I have so far not been able to find a form in literature where the dhatva form has been used, where, I mean, as in dhrut or dhrud. So if anybody of you anytime comes across this usage, please inform me, because for Panini to specific, ghatva was already been done through the previous sutra. దాదేర్ ధాతుర్ఘ ఇత్యనేన ఘత్వం ప్రాప్నోతి స్మ. సో స్పెసిఫికలీ ఇంక్లూడెడ్ దిస్ ఫార్ ధత్వ మీన్స్ దేర్ మస్ట్ బీ స్పెషల్ యూసేజ్ వేర్ ద ధత్వ ఫార్మ్ ఇస్ దేర్. బట్ యా, ఐ లైక్ టు ఫైండ్ దట్ ఫార్మ్ ఫార్ ఎనీ ఆఫ్ దోస్ ఎస్పెషలీ ఫార్ దృఘ ధాతు. ఓకే, లాస్ట్ వన్. రడ్వాహం సువ్రతం యో దదాతి హలస్య ఓఢారం అనంతవీర్యం ధురంధరం బలవంతం యువానం ప్రాప్నోతి లోకాన్ దశ ధేనుదస్య. ఫ్రమ్ ద మహాభారత. ఎనీబడి విత్ ద వర్డ్ అండ్ ద ప్రక్రియ క్విక్లీ. अनड्वाहम्, अनडुः शब्दस्य द्वितीय एकवचने रूपम् अनड्वाहम्, कथं रूपम् अनडुः अम् इत्यस्ति. चतुरणडुः वर् आमुदात्तः इत्यनेन आम् आक्रमः, च नडु आह् अम् इकोणचि इत्यनेन अनादेशे अनड्वाहम्. श्लोका सेस् यः अनड्वाहं ददाति, ही हु गिव्स् a bull as the dana. Usually godana is a famous one where dhenu or the cow is given, but he says he who gives a bull as the dana, halasya vodharam, that which can draw the plow, dhurandharam, bear weight, balavantam, yuvanam, a young bull which is very strong, saha dhenu dasya dashalokan prapnoti, he gets 10 times as much merit as a person who does godana, is what this shloka says. So, coming back to the lesson, we finished vakarantaha pullingaha. Thakarantaha samaptaha, anantaram vakaranta pullingeshu sudiv shabdaha. Diva shabdaha nityastrilingaha, samasekrute sudiv iti pullinge. Diva aut ityanena supratyaye pare aukaraha. दिव उत इत्यनेन पदान्ते उकारः. वयं दृष्टं ह य व र ततः रेफः, रेफान्ताः पुल्लिङ्गाः चतुर्शब्दः. एक द्वि त्रि चतुर्, चतुर् इस् द प्रातिपदिका फार् फोर्. एण्ड् नित्यं बहुवचनान्तः, सिन्स् इट् मीन्स् फोर्, इट्स् अ न्यूमरल् वित् it has only bahuvachana and no ekavachana or dvivachana. Chatur jas pratyaha, bahuvachanatvata adaveva jas pratyaha kriyate. Chatur as iti sthite, chatur anaduho ramudattaha, as we have been saying, for anaduh, just like we had for anaduh, chatur shabdasya api sarvanamasthane pare aam ityagamah kriyate. Aam antyagatah paraha, ukarat paratvena aam agamah. चतु आर् अस् इत्यस्ति. इकोर्णसि इत्यनेन अनादेशे चत्वार् अस् ज्ञायते. ससजुषोरुः इत्यनेन ऋत्वे त्रिसर्गे चत्वारः. इति पुल्लिङ्गे प्रथम बहुवचने रूपं चत्वारः. शस् प्रत्यये परे किं भवति? तदेव चतुर् अस् इत्यस्ति, किन्तु शसः सर्वनामस्थानत्वं नास्ति. सुट् अनपुंसकस्य, सुडः एव सर्वनामस्थानत्वं, शसः नास्ति, अतः आमागमोऽपि न भवति सर्वनामस्थानाभावात्. केवलं चतुरस् ऋत्वं विसर्गः चतुरः. सो चतुरः इस् अ वर्ड् विच् पोयट्स् आर् वेरि फाण्ड् आफ़् यूसिङ्ग् बिकास् इट् गिव्स् श्लेष. चतुरः इति प्रथमैकवचने चेत् कश्चित् क्लेवर् इत्यर्थे विशेषनिघ्नम्, इट्स् एन् अब्जेक्टिव्. किन्तु चतुरः इति द्वितीया बहुवचने अपि बहुधा प्रयुज्यते. चतुरो वेदान् वेदान् अधीते, वि आर् सेयिङ्ग् चतुरः वेदान् अधीते, मीन्स् हि रीड्स् द फोर् वेदास् द्वितीया बहुवचने, आर् चतुरः वेदान् अधीते. I mean, such usages are very popular in literature. Sarvanamasthanatvabhavena amagamo nasti. Chatvaraha, chaturaha. Chaturbhihi. Bhisi kimapi nasti. Chaturbhis. Urutvavisargayoho kratayoho. Chaturbhihi. Chaturbhyaha. Punaha chaturbhyaha. Chatur am itisthite. षट् चतुर्भ्यश्च इति सूत्रं. षट् चतुर्भ्यः च हस्वनद्यापो नुट् इति सूत्रात् नुट् इति अनुवर्तते. षट् सम्यकेभ्यः चतुरश्च परस्य आमः नुडागमः स्यात्. सो फार् वर्ड्स् विच् हेव् षट् सम्या एण्ड् फार् द वर्ड् चतुर् द आम् विच् फालोस् दीस् विल् गेट् नुट् अस् आगम. षट् सम्यकाः के? वाट् आर् What is Shatsamya? सत्यम्। श्नान्ता षट्, षकारान्ता नकारान्ता च संख्या षट् संज्ञा स्यात्। एनी न्यूमरल विच इज एंडिंग इन ष और न इट्स द षट् संज्ञा। फॉर एग्जाम्पल द वर्ड शशि इट्सेल्फ, सो यू हैव षण्णाम, और यू हैव पंचन, यू हैव पंचानाम। सर्वत्र नुट इति आगमो भवति। षट् संज्ञकेभ्यः चतुरश्च परस्य आमः नुडागमः स्यात्। मत्वं द्वित्वं कथं चतुर् आम् इत्यस्ति, षट्चतुर्भ्यश्च इत्यनेन णत्वे चतुर् न आम्। अनन्तरं णत्वं, णत्वं केन सूत्रेण, अभ्याम नो नह समान पदे, वन ऑफ द वेरी रेयर केसेस, द जनरल यूसेज व्हाट वी सी इज अट कुपंग में आए पी, दिस इज वन केस वेयर द रेफा इज इमीडिएटली प्रीसीडिंग द नकार। सो ऋषाभ्याम नो नह समान पदे रेफात परस्य नकारस्य नत्वं स्यात् इत्यनेन णत्वे चतुर्णां। द्वित्वं केन, अचो रहाभ्याम द्वे, इफ यू रिमेंबर फ्रॉम लॉन्ग एगो, अच्छंदी प्रकरणे दृष्टम द्वित्व प्रकरणम, सो आई सॉ इट। अचो रहाभ्याम द्वे कोर्थः अचः पराभ्याम रेफः काराभ्याम परस्य यरः द्वे वास्तः इति सूत्रार्थः। अचः पराभ्याम, अच् नाम उकारः, उकारात् परः यः रेफः, चतुर्न इत्यस्ति, उकारात् परः रेफः, रेफात् परस्य यर् वर्णस्य द्वे वास्तः इति सूत्रार्थः। तेन द्वित्वे कृते चतुर्णाम् इति नकारस्य द्वित्वं, तदभावे चतुर्णाम् इत्यपि अस्ति। सो अचोरः अभ्यां द्वे इस् ऑप्शनल सूत्र, बट जनरली इट इज प्रिफर्ड टू डू द्वित्व व्हेन इट व्हेन देयर इज अ पॉसिबिलिटी ऑफ अ द्वित्व। सो द लास्ट फॉर्म विल बी चतुर्सु, सप्तमी बहुवचने चतुर्सु इत्युच्यते। खरवसानयोर् विसर्जनीयः इति रेफस्य विसर्गः प्राप्नोति, खरि अवसाने च परे रेफस्य विसर्जनीयः स्यात् इति सूत्रार्थः। ओके, नेक्स्ट क्वेश्चन, हौ केन् यू हाव् न फॉर द्वित्व, ऐ डिडन्ट अंडरस्टैंड, व्हाट्स द क्वेश्चन। The na itself is the dvitva. You are doing dvitva for nakara. Na. The murdhanya. You do, because Rashabhyam yana samana pade, 841. You do the natva first. Natve krate nakarasya dvitvam. This is 8446. No. The first natva has to happen first, because dvitva is asiddha for natva. First we do natva. Natve krute tasya nakarasya dvittvam bhavati. Acho raha abhyam dve. Natva has to be first, because I mean, in tripadi it has to go in that order. Adav natvam, natve krute nakarasya dvittvam. So chaturunam iti nadvayam shruyate. Chatur su. Repha when followed by khar. Kharvasani or visarjaniyaha. Ittanena visargasya prapti asti. करोः सुपि इति सूत्रं विसर्गः नेष्यते वि डु नाट् वाण्ट् अ विसर्ग देर् सो वाट् वि डु पदद्वयं रोः सुपि खर्वसानयोर्विसर्जनीयः इत्यतः विसर्जनीयः इति अनुवर्तते सो दिस् सूत्र इमीडियट्लि फालोस् खर्वसानयोर्विसर्जनीयः इट् सेस् रोः सुपि विसर्जनीयः सुपि रोरेव विसर्जनीयः इत्यर्थः सप्तमी बहुवचने सुपि हियर् सुप् मीन्स् प्रत्यय विच् इस् सुप् सप्तमी बहुवचने रोरेव विसर्जनीयः इट् इस् ओन्ली रु रोः नाम ऋत्वं यत्र ऋत्वं क्रियते वेर् देर् इस् द ऋत्वा बै ससजुषोरुः आर् सम्थिङ्ग् सो देर् वी केन् कन्वर्ट् द रु टु विसर्जनीय न अन्यरेफस्य इफ् देर् इस् ओरिजिनली अ रेफ वि केन् नाट् कन्वर्ट् इट् इन् टु विसर्ग वाट् कैण्ड् आफ् अ सूत्र इस् दिस् नियमसूत्र एक्साक्ट्लि सो सिद्धे सति आरभ्यमाणो विधिः नियमाय भवति सो द नियमा इस् सुपि रोरेव विसर्जनीयः वेन् फालोड् बै सप्तमी बहुवचनं ओन्ली रेफा विच् इस् डिरैव्ड् एस् रु विल् गेट् विसर्ग विल् गेट् कन्वर्टेड् इन्टु विसर्ग अण्ड् नाट् एनी अदर् रेफा षत्वं चतुर्षु चतुर्सु इत्यस्ति सो द विसर्जनीय इस् प्रिवेण्टेड् सो द रेफा रिमेन्स् आस् इट् इस् चतुर्सु इति स्थिते आदेशप्रत्ययोः इत्यनेन षत्वं भवति इण् कवर्गाभ्यां परस्य रेफा बिलाङ्ग्स् टु इण् सो सिन्स् इट् इस् इण् इणः परस्य प्रत्ययावयवस्य सुप् प्रत्ययावयवस्य सकारस्य स्थाने षकारः मूर्धन्यः आदेशो भवति इत्यनेन षत्वे चतुर्षु इति रूपम् षस्य द्वित्वे प्राप्ते सो अगेन् जस्ट् लैक् वि डिड् इन् चतुर्णां हियर् आल्सो वि हेव् अ पासिबिलिटि आफ् द्वित्वम् अचोरः अभ्यां द्वे इत्यनेन द्वित्वे प्राप्ते शरोचि इति सूत्रं पदद्वयं शरः अचि अचोरः अभ्यां द्वे इत्यतः द्वे इति अनुवर्तते नादिन्याक्रोशे पुत्रस्य इति सूत्रेण न इत्यपि अनुवर्तते द्वित्वं न इत्यर्थः शरः अचि द्वे न वेरि सिम्पल् अचिपरे शरः द्वे न स्तः वेन् फालोड् बै एन् अच् शर् लेटर् श श स विल् नाट् बि डबल्ड् तेषां द्वित्वं न भवति चतुर्षु इत्यस्ति अचः परः रेफः रेफात् परः शर् नाम षकारः षकारात् परत्वेन अज्वर्णः विद्यते उकारः सो वेन् फालोड् बै अच् अशर् लेटर् विल् नाट् बि डबल्ड् सो षकारस्य द्वित्वं न भवति चतुर्षु इत्येव रूपम् एक एव षकारः श्रूयते सो चतुर्शब्दः एकवचने वा द्विवचने वा रूपाणि न सन्ति सर्वनामस्थाने चतुरणुः रामुदात्तः इत्यनेन आमागमो भवति चत्वारः इति रूपम् आमि षट्चतुर्भ्यश्च इत्यनेन नुट् भवति नुटि कृते अचोरः अभ्यां द्वे इत्यनेन द्वित्वमपि भवति दट्स् अबौट् चतुर्शब्द इट्सेल्फ् वाट् हेपन्स् वेन् दिस् चतुर्शब्द इस् अ पार्ट् आफ् अ समास क्वश्चन् सो हि सेस् देयर् इस् अ वर्ड् विच् केन् बि कन्स्ट्रक्टेड् लैक् प्रिय चतुर् प्रियाः चत्वारः यस्य सः इति विग्रहः ही फार् हूम् फोर् आर् डियर् से फार् एक्साम्पल् दशरथ दशरथ कुड् बि इण्डिकेटेड् बै द समास वेर् हि आर् फोर् सन्स् हू आर् वेरि डियर् टु हिम् प्रियाः चत्वारः यस्य सः दिस् इस् अ बहुव्रीहि अण्ड् इन् अ बहुव्रीहि अण्ड् दिस् थिङ्ग् सो बहुव्रीहि एस् यु नो इट् केन् बि हेड् इन् आल् लिङ्गस् again even if the original word was bahuvachana the bahuvrihi can have all vachanas because it the anya padartha can be one priyaha chatvarah yasya sah iti bhavitum arhati yayoh tau iti bhavitum arhati yashamte iti bhavitum arhati so all three vachanas can be seen for this word priya chatur is a word which is ending in chatur atra kim bhavati am आगमः भवत्येव. चतुरनडुः रामुदात्तः इति विहितं, तद् तस्यापि भवति तदन्तस्यापि भवति. सो सर्वनामस्थाने परे आम् इत्यागमः. प्रियचत्वाः, प्रियचतुर्स् इत्यस्ति सुलोपः. प्रियचतु आर्, प्रियचत्वार्, रेफस्य विसर्गे कृते प्रियचत्वाः इति एकवचने रूपं. प्रियचत्वाः, प्रियचत्वारौ, प्रियचत्वारः. हे प्रियचत्वः, सम्बुद्धौ तु अं सम्बुद्धौ इत्यनेन अमागमः. सो हे प्रियचित्चत्वः, हे प्रियचत्वारौ, हे प्रियचत्वारः इत्यादि अं सम्बुद्धौ इति अमागमं बाधित्वा अमागमः. सो द फार्म्स् विल् बि लैक् चतुर्से. शशि प्रियचतुरः इति भवति. प्रियचतुरा, प्रियचतुर्भ्यां, प्रियचतुर्भिः. देर् इस् नो स्पेशल् कार्य. गौणत्वे तु नुट् न इष्यते. बट् वन् डिफरेन्स् इस् वेन् इट् इस् गौण षट्चतुर्भ्यश्च इत्यनेन नुडागमः न इष्यते. नुट् विल् नाट् अकर् वेन् चतुर् इस् गौण, दट् इस् अप्रधान. सिन्स् दिस् इस् बहुव्रीहि समास, द वर्ड् चतुर् इस् नाट् प्रधान. सो गौणत्वे नुट् न भवति. नुट् न भवति चेत् यु हेव् प्रियचतुर् आम्, प्रियचतुराम् इत्येव रूपम्. इफ् इट् इस् ओन्ली चतुर्शब्द युल् हेव् चतुर्णां, बट् फार् दिस् युल् हेव् प्रियचतुराम्. देन् प्रियचतुरी, प्रियचतुरोः, प्रियचतुर्षु. सो द ओन्ली डिफ़रेन्स् बिट्वीन् दोस् इस् फस्ट् थिङ्ग् इस् यु हेव् बोत् एकवचन अण्ड् द्विवचन, अण्ड् आल्सो आमि परे आमः नुडागमो न भवति इति विशेषः. प्राधान्ये तु स्यादेव, बट् इन् अ समास इफ् चतुर् इस् प्रधान, दट् इस् द समास हेस् टु बी लैक् से कर्मधारय. परमाश्च ते चत्वारश्च, द फोर् ग्रेट् मेन् वेन् यु सेयिङ्ग् संथिङ्ग् लैक् दट्, तदानीं तु नुट् भवति. सो दिस् नुडागम गौणत्वेन भवति, प्राधान्ये भवति. भवति चेत् परमचतुर्णाम् इति भवति. सो इन् प्राधान्य देर् इस् ओन्ली बहुवचन अगेन्. सो इट् विल् बि एक्साक्ट्ली लैक् चतुर्शब्द, परमचत्वारः, परमचतुरः इत्यादि परमचतुर्णाम् इत्यपि भवति. गौणत्वे आमागमो भवति, नुडागमस्तु न भवति इति विशेषः. एनि क्वश्चन्स्? Look at the Vyakhyana, there should be something. There will be something in the commentary. The Valamanorama says, Shat Chaturbhyascha iti bahuvachana nirdeshat tadartha pradhanye eva nut iti bhavaha. What he says, because he says, the actual thing has been, you have one thing is shat and the other is chatur. So there should have been, the nirdesha should have been in dvivachana. As shat chaturoho, shat chaturoshcha, but he is saying bahuvachana. सो द बहुवचन, बहुवचननिर्देशात् तदर्थप्राधान्ये एव नुट् इति भावः. देर् बि सम् इलाबरेशन् आन् दिस् इन् द भाष्य. सो आल्वेज् वेन् देर् इस् सच् अ थिङ्ग्, देर् विल् बि सम् इण्डिकेशन् बै पाणिनि विच् टेल्स् इफ् सम् कार्य इस् नाट् इण्टेण्डेड् फार् गौण. द महाभाष्यकार विल् गिव् सम् युक्ति फार् इट्. ओके, सो हियर् दट् इस् वाट् बालमनोरमा सीस् एट् द स्पेशालिटि आफ़् द इण्डिकेशन् in case of shat chaturbhyascha lies in the bahuvachana nirdesha, saying shat chaturbhyah. Panini himself is using the bahuvachana form. Okay, the question is, what is the question, what is exactly is the question? The question is, I am saying there is one karya, say the amagama will occur both when chaturshabda is pradhana and gauna. And I am saying, but nut will not occur if it is gauna. Okay. How do we decide that is the question? बिकॉज बोथ ऑफ देम आर इन द अंगाधिकार पदांगाधिकारे तस्य च तदंतस्य च इति भवत्येव इट शुड बी इट शुड द कार्य शुड हैपन बोथ फॉर द वर्ड इंटेंडेड एंड तदंत ओके तदंते प्राधान्य प्रधानस्यैव भवति गौणस्य न भवति इति कथं निर्णयः इति प्रश्नः हाउ डू वी डिसाइड इफ सम कार्य अप्लाइज बोथ इन प्राधान्य एंड गौणत्व एंड सम कार्य विल नॉट अप्लाई इफ इट इज गौण द जनरल केस इज इट विल अप्लाई फॉर बोथ तदंतस्य इत्युक्ते प्रधानेपि भवति गौणेपि भवति इज द जनरल केस बट देर आर केसेस वेयर दे से गौणे न भवति प्रधाने एव भवति मीनिंग सम केसेस वेयर दे से यत्र प्राधान्यं तत्रैव भवति फॉर एग्जांपल इफ यू सॉ द सर्वनाम स्थान सो दे सेड संज्ञोपसर्जनी भूताः न सर्वादयः सो एनी कार्य इंटेंडेड फॉर सर्वनाम विल नॉट अप्लाई फॉर वेन द सर्वनाम इज गौण ओके देर वॉज अ डिरेक्ट वार्तिका So his question was, how do we decide that here? How do we decide that Nudagama will not apply when the word Chatur is Gauna? So the answer given is, there is something in the Vyakhyana. There is some indication given either by Panini or by Patanjali in the Bhashya or the Vartikakara, of course, which will indicate that. So the Valavanaramakara says, the indication here is the Bahuvachana Nirdesha in Shat Chatur Bhyashcha. Because if he is just in normal course, you have one particle shat, you have one particle chatur, so together it should have been dvivachana. But Panini is specifically using bahuvachana, indicating that when it is nitya bahuvachana, that is when these words are all pradhana, shat samya occurs for again numerals, they are all nitya bahuvachanas, pancha, shat, sapta, ashta, all of them are numerals. सो बहुवचन निर्देशेन किं ज्ञायते यत्र एतेषां बहुवचने एव प्रयोगः नित्यबहुवचनान्तत्वम् अर्थात् यत्र प्राधान्यमस्ति नित्यबहुवचनान्तत्व अकर् ओन्लि वेन् दे आर् प्रधान सो तत्र तत्रैव नुट् भवति इति पाणिनि इस् इण्डिकेटिङ्ग् इण्डिरेक्ट्लि बै द बहुवचननिर्देश विच् इस् पायिण्टेड् औट् बै पतञ्जलि इन् द भाष्य एण्ड् दट् इस् वै दीक्षितर् हास् डिरैव् दट् Any other questions? Four and fourth. Yes, for, yes, certainly. Chaturtha will be fourth, and Chatur is four. There are suffixes which are given for such, we call it as Puranarthaka Pratyaya. Prathama, Dvitiya, Tritiya, and Eka, Ekam, Dve, Trini, etc. There is a difference. They are all Tadhitas, the Puranarthaka Pratyaya. सो यू हेव रेफा पुिंग प्रियचतुर शब्द सो सर्वा वचना सर्वनामस्थनु चतुरो रामदात आम अथवा संबुद्ध अम संबुद्ध आमागम आमी गौण्वाद षट्चतुभ्यन नुडागमो नवती प्रियचतुरा सो दट वुड बी द डिफरेंशिएटिंग फैक्टर बिटवीन the chatur by itself and in the samasa as priya chatur then la haya vara la lakarantah pullingah there are no lakaranta pullingas it's just there are some cases where grammar goes on a theoretical even though grammar is meant to प्रयुक्तानाम् इदम् अन्वाख्यानम् भाष्यकारः वेरि क्लियर्ली सेस् प्रयुक्तानाम् इदम् अन्वाख्यानम् व्याकरण इस् ओन्ली डिस्कशन् आफ् वर्ड्स् विच् आर् यूस्ड् शिष्टप्रयोगे यानि पदानि सन्ति तेषाम् अन्वाख्यानं क्रियते इति स्पष्टतया उच्यते स्टिल् फार् फेरि सेक् आर् फार् द लव् आफ़् ग्रामर् देर् आर् many cases where we try to create words artificially which may or more most likely not there used in prayogas okay So this is one of those words. And one of the most popular ways of creating these is you take a pratipadika, convert it to a dhatu. So there will be some change and then convert it back to a pratipadika, where you get back something different, which is the purpose of sanadyanta dhatu. So it says kamalam 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 va achakshanaha kamal. So it's a sutra which gives a pratyaya called nich, tat karoti tad achashte. So doing something or speaking or telling something, in that sense there is a pratyaya called nich, which belongs to the sanadis. There are 12 pratyayas under sanadis. This is one of those. Kamalam kamalam va achakshanaha, somebody who says, just speaks of it. Kamala is the lotus, or Kamala Lakshmi. Either way, those are both pratipadikas, Kamala and Kamala. Usmata nich iti pratyaha kriyate. Nich pratyaya krite ato lopaha ityanena upadhayaha lopo bhavati. The akara is deleted by ato lopaha. Okay, so kamal e iti bhavati. Idanim quip pratyaha kriyate. So kartari quip. This is a general way of converting a dhatu to a pratipadika. Quip pratyaya krite. Nichaha ikaraha. So this e is coming from nich. The e is deleted by neraniti. Sutra says nehe lopaha. The nich is deleted. You have kamal v vakarasya veraprattasya teneha lopaha, which you should be familiar with now. So now you are ended up with a lakaranta word, which is kamal. Lakarantaha pullingaha. As I told, there is no prayoga. This is just a theoretical thing of what would happen if there were a lakaranta pullinga. And the answer is nothing. There is no special karya at all. There is absolutely nothing. So pratyaha halnyabhyaha ityanena sulopaha kamal iti bhavati. Kamalau kamalaha. Kamal au kamalau. Kamal as rutve visarge kamalaha. Angre. So there is nothing at all. Kamalam kamalau kamalaha etc. It goes on. Kamal su iti pratyaya. Lakaraha, it is still in. In extends till lun, so la is included it in. So in koho iti adhikare adesha pratyayoho ityanena shatve kamalshu iti bhavati. So there is no karya which is specific for a lakaranta. It's all a general karya which would happen even otherwise. Okay. So there is nothing kamalshu, a theoretical level, what would happen if there is a lakaranta word. That is all. So, No, the shatva will apply only when the sakara is preceded by in or kavarka. That is the adhikara for adesha pratyaya. In koho apadantasya murdhanyaha adesha pratyaya. There is an adhikara. Exactly. So because that lakara is in, we have shatva. If it was something else, we would not have the shatva. If it is sharatsu, there is no shatva because the takara does not belong to in or kavarga. Okay, so I think we can stop here. Next we supina paratvat shaktam. Next we go to makaranta. So we have hayavarat lan nyamangana nam nyakarantaha chavarga panchamaksharantaha pada pullingaha nasanti. There are no words which are ending in nya. The next one is ma. So we deal with the makaranta pullingas, which we will see in the next class. So before that, some prayogas which you can look at for the before the next class is something very special. Just, I mean, it's all just for a reference where you find it. I saw Turashat yesterday. Sankrandano Dushyavana Sturashan Meghavahana Iti Amarakoshe Indrasya Paryayeshu Vidyate Maharshayas Saptapurve Chatvaro Manavastatha मद्भावा मानसा जाताः येषां लोक इमाः प्रजाः. सो एज़ यूज़ुअल देयर आर लॉट ऑफ प्रयोगस फॉर द वर्ड चतुर. सो ट्राई टू जस्ट कलेक्ट अ फ्यू ऑफ देम. वेरी ईजी, द प्रक्रिया इज़ वेरी ईजी. इट्स जस्ट एन एग्जाम्पल. सो दट वॉज फ्रॉम द भगवद्गीता. दिस इज अ सुभाषित, वेरी फेमस वन. यथा चतुर्भिः कनकं परीक्ष्यते, द वर्ड हेज़ बीन लेफ्ट आउट हियर. कनकं परीक्ष्यते निघर्षणच्छेदनतापताडनैः, तथा चतुर्भिः पुरुषः परीक्ष्यते कुलेन शीलेन गुणेन कर्मणा. धर्मेण चतुरो वर्णान् पालयन् क्लेशमाप्निः. चतुरः वर्णान् पालयन्, लुकिङ्ग् आफ्टर् द फोर् वर्णास्. सो चतुरा हियर् इस् द द्वितीया बहुवचन. इट्स् एन् अब्जेक्टिव् टु वर्णान्, चतुरो वर्णान्. सो गिन् कर्ता कारयिता चैव प्रेरकश्चानुमोदकः, सुकृते दुष्कृते चैव चत्वारः समभागिनः. चतुर्णाम् आश्रमाणां हि गार्हस्थ्यं श्रेष्ठमाश्रमम्. कोट् फ्रम् द रामायण. जस्ट् लुक् एट् दोस् अण्ड् विल् स्टाप् हियर्. एनाक्षरसमं नायमधिगम्य महेश्वरात् व्याकरणं प्रोक्तं तस्मै पाणिनये नमः. मुनित्रयं नमस्कृत्य तदुक्तीः परिभाव्य च वैयाकरणसिद्धान्तकौमुदीयं विरच्यते.